ॐ इन्द्रो मदा अजवावृधे शवसे वृत्रः नृभिः तमिन्महत्स्वाजिषु ते मर्भे हवामहे सवाजेषु प्रनो विशत असि हि वीरसेन्योऽसि भूरि परा दधिः असि दभ्रस्य चिद्व्रधो यजमानाय शिक्षसि सुन्वते भूरि ते वसो यदुदीरत आजयो धृष्टवे धीयते धना युक्ष्वामदच्युता हरिकम् हरः कम् वसौ दधो स्वाङ्किन्द्रवसौ दधः क्रत्वा महाम् अनुष्वधम् भीम आवावृधे शवाः श्रियरिष्व उपाकयोर्निषिप्रे हरिवान्दधे हस्तयोर्वज्रमायसम् आपप्रौ पार्थिवम् रजो बद्बधेरोचनादिभि नत्वा वाङ्किन्द्र कश्चन न जातो न जनिष्यते ते विश्वम् वक्षिथा यो अर्यो मर्तभोजनम् परा ददाति दाशुषे इन्द्र अस्मभ्यम् शेक्षतो विभजा भूरि ते वसु भक्षीयत वराधसः मदे मदे हि नो ददिर्योथा गवा मृजुक्रतोः सङ्ग्रभाज पुरोषतो भजा हस्त्या वसु शिशेः राज आभरा मादयस्व सुते स चाशवसे शोरराधसे विद्मा हि त्वा पुरो वसुमुपकामान् ससृज्महेथानोमिता भव एते त इन्द्रजन्तवो विश्वम् पश्यन्ति वार्यम् अन्तर्हिख्यो जनानावर्यो वेदो अदाशुषाम् तेषान्नो वेद आभरा